इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेशः हेगडे। आदौ मुख्यवार्ताः। श्वः आरभ्यमाणस्य संसदस्य मानसून सत्रस्य पूर्वं नवदिल्लीनगरे सर्वदलीय संगोष्ठी अभवत्। संसदीय कार्याणां मन्त्री किरेन रिजिजुः अवदत् यत् संसदीय कार्याणां सुचारुरूपेण सञ्चालनाय सर्वकारस्य विपक्षस्य च समन्वयनस्य आवश्यकता वर्तते। प्रधानमन्त्री श्री नरेन्द्र मोदी बुधवासरात् यूके मालदीव देशयोः चतुर्दिवसीय यात्रायाः आरम्भं करिष्यति। वियतनाम देशे हालांग बे इत्यत्र पर्यटक नौकायाः प्रत्यावर्त्य जलमग्नानन्तरं मृतानां संख्या 38 अभवत्। भारतस्य मुरली श्रीशंकरः पुर्तगाल एथलेटिक क्रीडायां दीर्घकूर्दनस्य उपाधिं प्राप्तवान्। अपि च बुडापेस्ट नगरे चतुर्थः क्रमाङ्कन मल्लयुद्धश्रृङ्खलायां भारतेन स्वर्णत्रयसहितं 8 पदकानि प्राप्तानि। अथ वार्ताः विस्तरेण। संसदस्य मानसून सत्रे द्वयोः सदनयोः सुचारुरूपेण कार्यं सुनिश्चेतुं सत्रात् पूर्वम् अद्य सर्वकारेण सर्वदलीय संगोष्ठी कृता। सत्रस्य सुचारुरूपेण सञ्चालनार्थं विपक्षदलेभ्यः सहकार्यं प्राप्तुं सर्वकारेण एषा सभा आहूता आसीत्। लोकसभा राज्यसभायाः प्रतिनिधित्वं कुर्वन्तः विभिन्न राजनैतिकदलानां दलनेतारः सभायाम् उपस्थिताः आसन्। केन्द्रीयमन्त्री तथा राज्यसभायां सदनस्य नेता जगत्प्रकाश नड्डा इत्यस्य अध्यक्षतायां संसदीय कार्यमन्त्री किरेन रिजिजुः, संसदीय कार्याणां राज्यमन्त्रिणः अर्जुन राममेघवालः, डॉ एल मुरुगनः च उपस्थिताः आसन्। तदतिरिक्तं कांग्रेस दलात् गौरव गोगोई, प्रमोद तिवारी च, एनसीपी एससीपी तः सुप्रिया सुले, डीएमके तः तिरुचि शिवा, समाजवादी पार्टी तः रामगोपाल यादवः, डीएमके तः टीआर बालू, आप इति दलात् संजय सिंह च सभायां भागं गृहीतवन्तः। सभायाः अनन्तरं वार्ताहरैः सह भाषणं कुर्वन् संसदीय कार्याणां मन्त्री किरेन रिजिजुः अवदत् यत् संसदीय कार्याणां सुचारुरूपेण सञ्चालनाय सर्वकारस्य विपक्षस्य च समन्वयनस्य आवश्यकता वर्तते।
कई अहम मुद्दे हैं जिस पे सब पार्टी ने अपना विचार रखा है कि सदन में चर्चा होना चाहिए, तो हम तो खुले दिल से चर्चा के लिए तैयार हैं। नियम के तहत और परंपरा के तहत हम चलते हैं। हम नियम और परंपरा को बहुत अहमियत देते हैं, इसलिए हर विषय को चर्चा करेंगे, लेकिन नियम और परंपरा के तहत। सरकार की ओर से हम लोग ने सारा पॉइंट्स नोट किए हैं। हमने ये रिक्वेस्ट किया है कि सदन अच्छा से चले, इसके लिए पक्ष और विपक्ष मिलकर के हमको काम करना होगा, आपस में कोऑर्डिनेशन अच्छी तरह से रखना होगा।
श्वः आरभ्य मानसून सत्रम् अगस्ट मासस्य 21 दिनाङ्कपर्यन्तं भविष्यति। अधिवेशनकाले द्वयोः सदनयोः आहत्य 21 अधिवेशनानि भविष्यन्ति। सत्रस्य अवसरे जनविश्वासविधेयकः 20-25, राष्ट्रियक्रीडाशासनविधेयकः 20-25, व्यापारिकनौकायानविधेयकः 20-25 इत्यादिभिः सह महत्त्वपूर्णविधेयकाः चर्चायै पारितार्थञ्च उपस्थापयितुं शक्यन्ते। प्रधानमन्त्री श्रीनरेन्द्रमोदी बुधवासरात् यूके इति ब्रिटेन देशस्य मालदीवस्य च द्वयोः राष्ट्रयोः यात्रां करिष्यति। यात्रायाः प्रथमे चरणे प्रधानमन्त्री जुलाई मासस्य 23-24 ब्रिटेन देशस्य समकक्षस्य कीर स्टार्मरः इत्यस्य आमन्त्रणे ब्रिटेन देशं गमिष्यति। अस्मिन् भ्रमणाद् अवधौ प्रधानमन्त्री मोदी भारत ब्रिटेन द्विपक्षीय सम्बन्धानां सम्पूर्ण परिधिविषये प्रधानमन्त्रिणा स्टार्मर इत्यनेन सह विस्तृत विमर्शं करिष्यति। क्षेत्रीय वैश्विक महत्वयोः विषयोः अपि विचार विनिमयं करिष्यति। श्रीमोदी महामहिम राज्ञा चार्ल्स तृतीयेन सहापि मिलिष्यति इति अपेक्षास्ति। निजयात्रायाः द्वितीये चरणे प्रधानमन्त्री मोदी अस्य मासस्य 25 मालदीवस्य राष्ट्रपतिः डॉ मोहम्मद मुइज्जू इत्यस्य आमन्त्रणे द्विदिवसात्मके मालदीव यात्रायां भविष्यति। सः मालदीवस्य स्वातन्त्र्यस्य 60-वर्षस्योत्सवे मुख्यातिथिः भविष्यति, यत्र अवधौ सः मालदीवस्य राष्ट्रपतिना सह मिलित्वा परस्परहितानां विषयेषु चर्चां करिष्यति। वियतनाम देशे हालांग बे इत्यत्र पर्यटन नौकायाः प्रत्यावर्त्य जलमग्नानन्तरं मृतानां संख्या 38 अभवत् यतः अद्यापि अदृश्यानां अन्वेषण उद्धार कार्यक्रमाः निरन्तरं प्रचलन्ति। ह्यः एषा घटना यदा अभवत् तदा नौका क्षेत्रव्यापी प्रबल चक्रवातेन ग्रस्ता अभवत् येन निमग्नात् पूर्वं अधिकारिभिः सह सम्पर्कः नष्टः अभवत्। क्रूज नौकायां 53 जनाः गच्छन्ति स्म, येषु 5 चालकदलस्य सदस्याः, 48 यात्रिणः च आसन्, येषु बहवः युवानः बालकाः च आसन् इति सूच्यते। प्रतिकूलवायुस्थितेः प्रचण्डवृष्टेः च मध्येऽपि उद्धारदलानि 10 जनान् जलात् उद्धारयितुं समर्थानि अभवन्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज़ ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। अद्य वाराणसीनगरस्य बनारस हिंदू विश्वविद्यालये केन्द्रीय युव प्रकरणानां क्रीडामंत्री मनसुख मांडविया इत्यनेन फिट इंडिया संडेस ऑन साइकल इत्यस्य अभियानस्य नेतृत्वं कृतम्। केन्द्रीय मंत्री उक्तवान् यत् अस्य अभियानस्य माध्यमेन सर्वासु शैक्षणिक संस्थासु नशा मुक्ति संदेशं 6,000 अधिकेषु स्थानेषु प्रसारितम् अस्ति।
आज सारे देश की सभी एजुकेशनल इंस्टीट्यूट ने 6,000 से अधिक स्थानों पर संडे ऑन साइकिल करके नशा मुक्ति का संदेश दिया है। मोदी जी ने फिट इंडिया मूवमेंट चलाई है। संडे ऑन साइकिल के द्वारा देश के युवा फिट रहे, देश के युवा स्वस्थ रहे, देश के युवा देश के लिए काम करे और समृद्ध भारत का निर्माण करे, ये लक्ष्य के साथ हर संडे ऑन साइकिल होती है।
अद्य ऐतिहासिकस्य अपोलो 11 मिशन इत्यस्य अभियानस्य स्मरणार्थम् अन्ताराष्ट्रिय चन्द्रमा दिवसः आचर्यते। यद्दिने मनुष्येण प्रथमवारं 1979 वर्षे जुलाई मासस्य 20 चन्द्रमसि प्रदार्पणं कृतम्। संयुक्तराष्ट्रसङ्घस्य महासभायाः अनुशंसायाः अनन्तरम् अधिकारिकरूपेण 21 वर्षे अस्य दिवसस्य आचरणम् आरब्धम्। अस्मिन् दिने चन्द्र अन्वेषणस्य वैश्विक उपार्जनानाम् उत्सवः क्रियते, अथ अयं दिवसः अन्ताराष्ट्रिय सहकार्यं स्थायि अन्तरिक्ष अभ्यासं चन्द्र संसाधनानां शान्तिपूर्ण उपयोगञ्च प्रवर्धयति। ऐषमः वर्षस्य विषयः एकः चन्द्रः एका दृष्टिः एकं भविष्यम् इति। भारतम् एड फेल्काइवैक्स इति नामकं बहुचरणीयं मलेरिया टीकां विकासयति। अस्य टीकायाः उद्देश्यं मानवसंक्रमणात् रक्षणं प्रदातुं तथा च परजीविनः सञ्चारजनितसमुदायिकसंक्रमणस्य न्यूनीकरणं वर्तते। एडफेल्काइवैक्स इति प्रथमा स्वदेशीया पुनर्संयोजिता काइमेरिक मलेरिया टीका अस्ति, यत् विशेषतया मलेरियायाः अत्यन्तं घातकरूपेण उत्तरदायी परजीवी प्लास्मोडियम फाल्सिपेरस इति अनयोः द्वयोः महत्वपूर्णयोः चरणयोः लक्ष्यं कर्तुं विनिर्मितं वर्तते। भारतीय चिकित्सा संशोधन परिषद सम्प्रति जैवप्रौद्योगिकी विभागेन राष्ट्रीय प्रतिरक्षा विज्ञान संस्थायाः सहयोगरूपेण एतस्य मलेरिया टीकायाः विकासं करोति। एथलेटिक्स क्रीडायां मुरली श्रीशंकरः गतरात्रौ 7.75 मीटर पर्यन्तं कूर्दनं कृत्वा पुर्तुगाल क्रीडा समारोहे दीर्घ कूर्द उपाधिं प्राप्तवान्। अवधेयमस्ति यत् एतत् आयोजनं विश्व एथलेटिक्स महाद्वीपीय भ्रमण कांस्यस्तरीय मेलनस्य भागः वर्तते। बुडापेस्ट नगरे चतुर्थ क्रमांकन मल्लयुद्ध श्रृंखलायां भारतेन स्वर्णत्रयसहितं 8 प्राप्तानि। मुख्यवार्ताः पुनरेकवारम्। श्वः आरभ्यमाणस्य संसदस्य मानसून सत्रस्य पूर्वं नवदिल्लीनगरे सर्वदलीय संगोष्ठी अभवत्। संसदीय कार्याणां मन्त्री किरेन रिजिजुः अवदत् यत् संसदीय कार्याणां सुचारुरूपेण सञ्चालनाय सर्वकारस्य विपक्षस्य च समन्वयनस्य आवश्यकता वर्तते। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरात् यूके मालदीव देशयोः 4 यात्रायाः आरम्भं करिष्यति इति वार्ताः।